अध दशांगरौद्रीकरणम् ओम भूर्भुवस्सुवः ओम ओम नमः शंभवे च मयो भवे च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च त्रातारमिन्द्रमवितारमिन्द्र गुं हवे हवे सुहभगुं शूरमिन्द्रम् भुवेनुशक्रं पुरुहूतमिन्द्रग् स्वस्ति नो मघवाधात्मिन्द्रः नमः शंभवे च मयो भवे च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च ॐ नमो भगवते रुद्राय ॐ ॐ पूर्वदिग्भागे ललाटस्थाने इन्द्राय नमः ॐ भूर्भुवस्सुवः ॐ नम नमः शंभवे च मयो भवे च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च त्वन्नो अग्ने वरुणस्य विद्वान् देवस्य हेडो वयासि सिष्ठाः यजिष्ठो वह्नितम शोषुचानो विश्वाद्वेषागुंसि प्रमुमुग्यस्मत् नमः शंभवे च मयो भवे च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च ॐ नमो भगवते रुद्राय नम ॐ आग्नेय दिग्भागे नेत्रस्थाने अग्नये नमः ॐ भूर्भुवस्सुवः ॐ मों नमः शंभवे च मयो भवे च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च सुगन्नः पन्धाम भयं कृणोतु यस्मिन्नक्षत्रे जमजेति राजा यस्मिन्नेनमभ्यषिञ्चन्त देवाः तदस्य चित्रगुं हविषाय जाम नमः शंभवे च मयो भवे च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च ॐ नमो भगवते रुद्राय मों ॐ दक्षिणदिग्भागे कर्णस्थाने यमाय नमः ॐ भूर्भुवस्सुवः ॐ भं नमः शंभवे च मयो भवे च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च असुन्वन्तमय जमानमि छस्तेनश्चेत्यान्तस्करस्यान्वेषे अन्यमस्मदिच्छसात जित्या नमो देवी निरुते तुभ्यमस्तु नमः शंभवे च मयो भवे च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च ॐ नमो भगवते रुद्राय भं ॐ निररतिदिग्भागे मुखस्थाने निररतये नमः ॐ भूर्भुवस्सुवः ॐ गं नमः शंभवे च मयो भवे च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च तत्त्वायामि ब्रह्मणा वन्दमानः सदाशास्ते यजमानो हविर्भिः अहेडमानो वरुणेह भोज्युरुषगुं समान आयुः प्रमोषे नमः शंभवे च मयो भवे च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च ॐ नमो भगवते रुद्राय गं ॐ पश्चिमदिग्भागे बाहुस्थाने वरुणाय नमः ॐ भूर्भुवस्सुवः ॐ वं नमः शम्भवे च मयो भवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च आनो नियुद्भिशतिनीभिरध्वरम् सहस्रिणीभिरुपयाहि यज्ञम् वायो अस्मिन् हविषिमादयस्व यूयं पात स्वस्तिभिः सदा नः नमः शम्भवे च मयो भवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ॐ नमो भगवते रुद्राय वं ॐ वायव्यदिग्भागे नासिकास्थाने वायवे नमः ॐ भूर्भुवः सुवः ॐ तें नमः शम्भवे च मयो भवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च वयगुं सोमव्रते तव मनस्तनूषु बिभ्रतः प्रजावन्तो असीमहि इन्द्राणी देवी सुभगा सुपत्नी नमः शम्भवे च मयो भवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ॐ नमो भगवते रुद्राय तें ॐ उत्तरदिग्भागे जठरस्थाने कुबेराय नमः ॐ भूर्भुवः सुवः ॐ रुं नमः शम्भवे च मयो भवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च तमीशानञ्जगतस्थस्तु षष्पतिं धियं जिन्वमनसे हूमहे वयं भूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदब्धस्वस्तये नमः शम्भवे च मयो भवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ॐ नमो भगवते रुद्राय रुं ॐ ईशान्यदिग्भागे नाभिस्ताने ईशानाय नमः ॐ भूर्भुवः सुवः ॐ द्रां नमः शम्भवे च मयो भवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च अस्मे रुद्रा मेघना पर्वतासो वृत्रखच्चे भरभूतौ सजोषा आह यशंसते स्तुवते धायी वज्रजिन्द्रज्येष्ठ अस्माम् अवन्तु देवाः नमः शम्भवे च मयो भवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ॐ भूर्भुवः सुवः ॐ यम् नमः शम्भवे च मयो भवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च शोना पृथिवी भवा दुक्षरा निवेशने यच्छानः शर्म सप्रधाः नमः शम्भवे च मयो भवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ॐ नमो भगवते रुद्राय यम् ॐ अधो दिग्भागे पादस्थाने पृथिव्यै नमः।